एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। निर्वाचन आयोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्य पदानां निर्वाचनस्य कृते दलपञ्जीकरणाय समयसीमा चत्वारो दिवसः वर्धिताः वर्तन्ते। दलपञ्जीकरणाय अस्यैव मार्गशीर्ष मासस्य प्रथम दिवसात् ह्यस्तन दिवसं यावत् समय निर्धारित आसीत्। विभिन्नानां पक्षाणाम् अनुरोधेन आयोगस्य ह्य उपविष्टेन उपवेशेन चत्वारि दिनानि वर्धयितुं निर्णीतमस्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराय असूचयत्। आयोगे सम्प्रति पञ्जीभूतेषु सप्तत्रिंशदुत्तरैकशते दलेषु ह्यस्तन दिवसं यावत् षडुत्तरैकशतेन दलैः निर्वाचने भागं ग्रहीतुं निवेदनं प्रदत्तमस्ति इति आयोगस्य सहसचिवः यज्ञप्रसाद भट्टराय अज्ञापयत्। प्रतिनिधिसभायाः सदस्यपदानां निर्वाचनस्य कृते सम्प्रति अष्टनवतिर्दिनानि अवशिष्टानि वर्तन्ते। प्रधानमन्त्री सुशीला कार्की कुलपतिपदे राजनीतिक जनानां विद्यमानतायाः कारणेन विश्वविद्यालयेषु राजनीतिकः हस्तक्षेपः वर्धते इति धारणाम् अभिव्यनक्ति। त्रिभुवन विश्वविद्यालयस्य वार्षिक साधारण सभां सम्बोधयन्ती प्रधानमन्त्री कार्की देशस्य सर्वेष् विश्वविद्यालयेष् प्रधानमन्त्रिणः पदेन कुलपतित्वेन विद्यमानतायाः व्यवस्थां निरस्य विश्वविद्यालयेष् अनावश्यक्याः राजनीतेः मार्गः पिधापनीयः इत्यत्र बलं दत्तवती। विश्वविद्यालयाः न केवलं शैक्षिक प्रशासनिक रूपेण अपितु आर्थिक रूपेणापि स्वावलम्बिनो भवेयु इत्यत्र प्रधानमन्त्री कार्की बलं दत्तवती। सभायां शिक्षा विज्ञान प्रविधि मन्त्री विश्वविद्यालयस्य सहकुलपतिश्च महावीर पुन अध्यादेशस्य माध्यमेन अन्येषां विधिनां माध्यमेन वा प्रधानमन्त्रिणः कुलपतित्वस्य व्यवस्थायाः विषये विज्ञैस्सह विमर्शः विधीयमानोऽस्ति इति अगदत्। सभया उच्चस्तरीयं त्रिभुवन विश्वविद्यालयस्य पुनर्संरचना आयोगं संघटय्य विश्वविद्यालयतः लब्धसम्बन्धानां महाविद्यालयानां शैक्षिकस्य भौतिकस्य प्रशासनिकस्य च कार्याणां मूल्यांकनं विधाय आवश्यकतायाः अनुसारेण समायोजनस्य निरसनस्य वा कार्यम् अग्रेसारयितुं निर्णीतमस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः आयोज्यमानात् उपवेशात् महाधिवेशनस्य दिनांकस्य निश्चयाय बलं दातुं नेपाली कांग्रेस दलस्य विशेष महाधिवेशन पक्षधरै जनैः ह्य काष्ठमण्डपे विशेष मेलन सभा आयोजिता अस्ति। नेपाली कांग्रेस दलस्य चतुर्दशोत्तर द्विसहस्रतमे वैक्रमाब्दे सम्भूते प्रथम विशेष महाधिवेशने सहभागिनः नेतुः ओमकार श्रेष्ठस्य अध्यक्षतायां सम्भूतायां मेलन सभायां दलस्य नैके केन्द्रीय सदस्याः कतिपय प्रदेशानां सभापतयश्च सहभागिनः आसन्। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणात् प्रतिनिधिसभायाः सदस्यानां निर्वाचनात् पूर्वं पश्चात् वा दलस्य महाधिवेशनं विधातव्यमिति विषये विवादेन नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशः निरन्तरं जायमानोऽस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः अद्य निर्धारितः उपवेशः श्वः शुक्रवासरे दिवा द्विवादनाय आहूतोऽस्ति। नेकपा एमाले दलस्य एकादशतम राष्ट्रिय महाधिवेशन सचिवालय समित्या महाधिवेशनस्य पूर्व कार्यस्य विषये उपसमितिभिस्सह ह्य विमृष्टमस्ति। ललितपुरस्य च्यासलवर्तिनी दल केन्द्रीय कार्यालये महासचिवस्य शंकर पोखरेलस्य अध्यक्षतायाम् उपविष्टे उपवेशे महाधिवेशनस्य पूर्व कार्यस्य कृते दलेन संघटितानां विभिन्नानां द्वादश उपसमितिनां संयोजकैः सह विमृष्टमस्ति। उपवेशे उपसमितिनां संयोजकैः साम्प्रतिकं कार्यप्रगति विवरणं प्रस्तुतमासीत्। एवमेव उपवेशेन एकादशतमस्य महाधिवेशनस्य कृते निर्णायक राष्ट्रिय शक्ति निर्माणस्य संकल्पः समृद्धो नेपालः सुखिनो नेपालकाश्चेति अस्माकं गन्तव्यमिति मूल समाघोषः निर्धारितोऽस्ति। नेकपा एमाले दलस्य राष्ट्रिय महाधिवेशनम् अस्यैव मार्गशीर्ष मासस्य सप्तविंशात् दिवसात् काष्ठमण्डपे आयोक्ष्यते। नेपाल सर्वकारस्य नवनियुक्त मुख्य सचिव सुमनराज अर्याल ह्य पदभारम अवहत। प्रधानमन्त्री मन्त्री परिषद कार्यालय पूर्वेद्यु पदभारम निर्वहन मुख्य सचिव अर्याल सर्वकारीय सेवाया प्रतिष्ठाम् अतिरिक्तं वर्धयित्वा सुशासनस्य सेवा प्रवाहस्य विकास निर्माणस्य समग्र रूपान्तरणस्य च कृते प्रमुखाधारस्तम्भस्य रूपेण संस्थापनार्थम् अहोरात्र क्रियाशीलता भविष्यतीति प्रतिबद्धताम् अभिव्यनक। मुख्य सचिव अर्याल सार्वजनिक सेवाम् प्रभावकारिणीम् विधाय नागरिक मैत्रिणीम् संस्थाप्य समग्र प्रशासनिक संयन्त्रस्य विकास परिणाममुखिन सम्पादनाय आत्मन क्रियाशीलता भविष्यतीति च उदैरयत्। तदवसरे मुख्य सचिव अर्याल जेन्जी युवसन्तते आन्दोलनस्य माध्यमेन प्रदत्त बलानाम् सुशासनस्य संस्थागत विकासस्य भ्रष्टाचारस्य नियन्त्रणस्य सेवा प्रवाहस्य च सुधारस्य विषयान् उच्च प्राथमिकतायाम् संस्थाप्य कार्यम् कर्तुम् अन्तर्गतान् सचिवान् निरदिशत्। उद्योग वाणिज्यापूर्ति मन्त्रालयेन सार्वजनिक सेवाया प्रभावकारितायाः अभिवर्धनस्य उद्देश्येन तत्कालं करणीया सुधार कार्ययोजनाया क्रियान्वयनं विहितमस्ति। मन्त्रालयेन उद्योग वाणिज्यापूर्ति क्षेत्रस्य सुधाराय समयसीमानं निर्धार्य एकोनचत्वारिंशत् सूत्रीय कार्ययोजना क्रियान्विता अस्ति। व्यावसायिक सुशासनस्य प्रवर्धनाय नीतिगत विधेः सहजीकरणं विपन्नताया निवारणाय लघुद्यम विकास दलित समुदायस्य परम्परागतस्य मौलिक शिल्पस्य संरक्षणस्य प्रवर्धनस्य च माध्यमेन वृत्ति उपार्जनस्य आयाजनस्य च अवसरस्य सर्जनं च करिष्यन्ते इति कार्ययोजनायाम् उल्लिखितमस्ति। अधिकार दुरूपयोगानुसन्धान आयोगेन विद्यावारिधे मिथ्याविवरणस्य आधारेण त्रिभुवन विश्वविद्यालयस्य सह परीक्षा नियन्त्रक पदे नियुक्ते आरोपे चतुर्णां जनानां विरूद्धे विशेष न्यायालये भ्रष्टाचारस्य आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन ह्य त्रिभुवन विश्वविद्यालयस्य सह परीक्षा नियन्त्रक चयन समितेः संयोजकस्य प्राध्यापकस्य डा जयालक्ष्मी प्रधान इत्यस्याः सदस्ययोः प्राध्यापकस्य डा मोतीलाल शर्मणः प्राध्यापकस्य डा मेघराज पोखरेलस्य तात्कालिक सह परीक्षा नियन्त्रकस्य दिल्लीराम प्रसाद इत्यस्य च विरूद्धे कृत्रिम मिथ्या प्रतिवेदनस्य परीक्षायाः परिणामस्य परिवर्तनस्य अयोग्य पदप्राप्तेश्च विषयेषु भ्रष्टाचारः सम्भूतोऽस्तीति उक्त्वा काष्ठमण्डपवर्तिने विशेष न्यायालये भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आगामिनः पौषमासस्य प्रथम दिवसात् व्याघ्राणां गणना विधास्यते इति राष्ट्रिय निकुञ्ज वन्य जन्तु संरक्षण विभागेन ज्ञापितं वर्तते। पर्सा चितवन बाकी बर्दिया शुक्ला फाटा राष्ट्रिय निकुञ्जेषु व्याघ्राणां गणना विधास्यते। पौष माघ फाल्गुनेषु त्रिषु मासेषु पर्सा चितवन बाकी बर्दिया शुक्ला फाटा राष्ट्रिय निकुञ्जेषु व्याघ्राणां गणना विधास्यते इति राष्ट्रिय निकुञ्ज वन्य जन्तु संरक्षण विभागस्य वरिष्ठ पारिस्थितिक विज्ञ हरिभद्र आचार्य असूचयत्। एतत्पूर्व द्वाविंशत्युत्तर द्विसहस्रतम ख्रीष्टवर्षे व्याघ्राणां गणना विहिता आसीत्। सम्प्रति नेपाले पञ्चत्रिंशदुत्तर शतत्रयं व्याघ्रा सन्तीति तथ्याङ्को वर्तते। व्याघ्राणां गणनाया अनन्तरं गण्डकानां गणना विधास्यते इति निकुञ्ज विभागेन ज्ञापितं वर्तते। एनपीएल न्याम्न्याम नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा श्रृंखलायां विराटनगर किंग इति क्रीडा समूह ह्य प्रथमवारं पराजितोऽस्ति। नैरन्तरेण वारत्रयं प्राप्त विजय विराटनगर किंग्स इति क्रीडा समूह चितवन रायनोज समूहेन ह्य पराजितो वर्तते। विजयस्य कृते पञ्चसप्तत्यधिकैकशत धावनांकानां लक्ष्यम् अनुसरन् विराटनगर किंग्स समूह दशमलव पञ्चोत्तर षोडश ओभरांकेषु षड्विंशत्यधिकैकशत धावनांकान् अर्जितवान् आसीत्। एतत्पूर्वं प्रथमं क्रीडितेन चितवन रायनोज समूहेन निर्धारितेषु विंशत्यां ओवरांकेषु पञ्चानां क्रीडकानां क्षेत्रौ चतुस्सप्तत्यधिकैकशतं धावनांकः अर्जितः आसन् इति समाचारः।